एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दहाल नेपाली कांग्रेस नेकपा माओवादी केन्द्राभ्याम सैतानाम अष्टानाम दलानाम उपवेशेन राष्ट्रपतेः आगामी निर्वाचने नेपाली कांग्रेस दलस्य प्रत्याशिनम् समर्थयितुम् निर्णीतम् वर्तते। बाल्वा टारावर्तिनी प्रधानमन्त्री निवासे गत सायम उपविष्टेन नेकपा माओवादी केन्द्र नेपाली कांग्रेस जनता समाजवादी नेकपा एकीकृत समाजवादी लोकतान्त्रिक समाजवादी नागरिकोन्मुक्ति जनमत राष्ट्रिय जनमोर्चा दलानाम शीर्ष नेतृणाम उपवेशेन नेपाली कांग्रेस दलस्य प्रत्याशिनम् राष्ट्रपते निर्वाचने समर्थयितुम् निर्णीतमिति नेकपा एकीकृत समाजवादी दलस्य नेता प्रकाश ज्वाला अज्ञापयत। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन आकारित सत्तायां विद्यमानानां सत्तातो वैस्थानां च अष्टानां दलानाम उपवेशे विपुल दलस्य रूपेण राष्ट्रपतेः निर्वाचने कांग्रेस दलस्य प्रत्याशिने समर्थन प्रदान सम्बद्ध प्रस्तावे अष्टानां दलानां सहमति धृतेति नेता ज्वाला अवदत। उपराष्ट्रपतेः निर्वाचनस्य विषये किमपि न विमृष्टमिति असौ अज्ञापयत। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः गत दिवसादेव नवीन राजनीतिक यात्रा प्रारब्धा एवं अतपरम जनजीविकायाः विषय एकीभूय अग्रे वर्धिष्यते इत्यभासत इति उपवेशस्य पश्चात् नेकपा एकीकृत समाजवादिनः उपमहासचिवः ज्वाला संचारकर्मिणः ज्ञापितवान्। तत्पूर्वं ह्यः प्रातः उपविष्टेन कांग्रेस माओवादी केन्द्र जनता समाजवादी नेकपा एकीकृत समाजवादी दलानां शीर्ष नेतृणाम् उपवेशेन निर्वाचनात् प्राक् विद्यमानं गठबन्धनं पुनर्जीवयितुं सहमति धृता आसीत्। अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे सम्पत्स्यमानाय राष्ट्रपतेर्निर्वाचनाय अद्य प्रत्याशिनो मनोनयन पञ्जीकरणं विधीयमानं वर्तते। नयाँ बानेश्वर स्थितस्य संघीय संसद भवनस्य परिसरे स्थापिते निर्वाचनाधिकृतस्य कार्यालये पूर्वाह्नस्य दशवादनात् अपराह्नस्य त्रिवादनं यावत् प्रत्याशिता पञ्जीकर्तुं शक्यते इति सहायक निर्वाचनाधिकृतः अमृता कुमारी शर्मा ज्ञापयति। अद्यैव अपराह्नस्य चतुर्वादनस्य अभ्यन्तरे पञ्जीकृत मनोनयन पत्राणां प्रत्याशिनां सूच्याः प्रकाशनस्य कार्यतालिका वर्तते। फाल्गुनस्य पञ्चविंशे दिवसे पूर्वाह्नस्य दशवादनात् अपराह्नस्य त्रिवादनं यावत् मतदानस्य समयः निर्धारितो वर्तते। मतदान समाप्तेः अनुपदमेव मतगणना प्रारप्स्यते एवं सायं सप्तवादनस्य अभ्यन्तरे एव मतपरिणामं सार्वजनिकर्तुं पूर्वकार्यं कृतमिति निर्वाचनायोगो ज्ञापयति। निर्वाचनाधिकृतस्य कार्यालययुतस्य संघीय संसद भवनस्य परिसरस्य अभ्यन्तरे एव मतदानकेन्द्रं भविष्यति। सर्वकारेण एतद् वैक्रमाब्दस्य सांविधानिक परिषदः कार्यकर्तव्याधिकार कार्यविधि सम्बद्धस्य प्रथम संशोधन विधेयकस्य संघीय संसदि प्रस्तुत्यै स्वीकृतिं दातुं निर्णीतं वर्तते। बृहस्पतिवासरे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री रेखा शर्मा नेपाल सर्वकारस्य गतार्थिक वर्षस्य वार्षिक प्रतिवेदनं स्वीकृत्य राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं प्रस्तोतुं निर्णीतमस्तीति अवोचत। उपवेशेन विकासायोजनानां सञ्चालनाय व्यवस्थापनाय च विधेयक निर्माणार्थं सैद्धान्तिक स्वीकृतिं दातुं निर्णीतमिति संचार मन्त्री शर्मा अज्ञापयत। सर्वकारेण वर्तमानार्थिक वर्षाय गोधूमस्य न्यूनतमं समर्थन मूल्यं प्रति क्विंटल मितं सहस्रत्रयम् एकपञ्चाशद अधिक शतत्रयं च रूप्यकाणि निर्धारयितुं दक्षिणकाली नगरपालिकायाः प्राशासनिक भवनस्य निर्माणार्थं सर्वकारीय भूमेः उपयोगाय स्वीकृतिं दातुं च निर्णीतमस्ति। अत्यावश्यक सेवा प्रवाहकान् सर्वकारीय कार्यालयान् सार्वजनिकावकाशेऽपि सञ्चालयितुम् उपवेशेन निर्णीतमिति संचार मन्त्री शर्मा अज्ञापयत्। प्रतिनिधि सभायाः ह्यस्तनोपवेशे सांसदानाम् आवश्यक गणपूरक संख्यायाः अभावात् फाल्गुनस्य पञ्चदशम दिवसं यावत् उपवेशः स्थगितीकृतोऽस्ति। प्रधानमन्त्रिणः पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा राष्ट्रिय सभातः ससन्देशं प्राप्तं गतविक्रमवर्षीयम् अनुगमन मूल्यांकन विधेयकम् आदृत्य विचार्यतामित्युक्त प्रस्तुतस्य प्रस्तावस्य निर्णयार्थं प्रस्तुत्यै आवश्यक गणपूरक संख्यायाः पर्याप्तेः अनन्तरं सभामुखः देवराज घिमिरे उपवेशम् अस्थगयत। उपवेशे विधेयकमादृत्य सामान्य विमर्शनस्य पश्चात् सभामुखेन घिमिरे विधेयेन निर्णयार्थं विधेयकस्य प्रस्तुतेः अनन्तरं नेपाली कांग्रेस दलस्य मुख्य सचेतक पदीयेन रमेश लेखकेन नियमापत्तिं ज्ञापयित्वा गणपूरक संख्यां निश्चेतुम् अभियाचित आसीत। तत्पूर्वम् उपवेशस्य शून्य समये विशेष समये च भाषमाणाः सांसदाः विभिन्न विकासायोजनानां यथासमयं सम्पादनस्य कृषि मल बीज सिंचन सौविध्यानां कृषकाणां समस्यानां समाधानस्य भ्रष्टाचारस्य प्रभावकारिणः अनुसन्धानं विधाय सुशासन स्थापनस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपर उपवेशः फाल्गुनस्य पञ्चदशे दिवसे सोमवासरे दिवा एकवादने वस्ता। प्रधानमन्त्री पुष्पकमल दाल प्रचण्ड कथयति विश्वस्मिन् विकस्यमानस्य सूचना प्रविधेः नवीना उपलब्धय संस्कृत विश्वविद्यालयेन अवलम्बनीया। नेपाल संस्कृत विश्वविद्यालय सभाया पञ्चसप्ततितमम् उपवेशम् ह्य सम्बोधयन् प्रधानमन्त्री प्रचण्ड संस्कृत विश्वविद्यालयस्य नवीन शैल्या चिन्तनेन च अग्रे वर्धापनस्य आवश्यकताम् प्रादर्शयत। नेपाल संस्कृत विश्वविद्यालयस्य कुलपतिश्च प्रधानमन्त्री प्रचण्ड कस्यापि राष्ट्रस्य सभ्यता समृद्धि उन्नतिश्च शिक्षा एव आधारभूमौ निर्मीयन्ते इत्यतः शैक्षिक क्षेत्रस्य सुधारः गुणस्तरोन्नयनं च सर्वकारस्य प्राथमिकता अस्तीति प्रत्यपादयत्। असौ अध्ययनाध्यापनम् अनुसन्धानाधृतं विधातुं विश्वविद्यालयस्य पाठ्यक्रमं समयसापेक्षम् आपादयितुं च सर्वकारेण स्वस्य नीति कार्यक्रमेषु कार्यक्रमः समाविष्टोऽस्तीति अवदत्। परराष्ट्रमन्त्री डाक्टर विमला राई पौड्याल कथयति नेपाल परराष्ट्रनीतेः संचालने असंलग्नतायाः सिद्धान्तं प्रति दृढो वर्तते। नीत्यनुसन्धान परिषदा ह्य काष्ठमण्डपे आयोजिते नेपालस्य सप्तसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीय परराष्ट्रनीति सम्बद्ध सार्वजनिक नीति विषयके संवाद कार्यक्रमे मन्त्री डाक्टर राई पौड्याल नेपालस्य परराष्ट्रनीतिः समय सापेक्षां विधाय प्रकाश्य च सार्वजनिक करिष्यते इत्य ज्ञापयत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति देशाय शिल्पयुक्त जनशक्तेः आवश्यकता अस्ति। प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषदः पञ्चत्रिंशं वार्षिकोत्सवं ह्य भक्तपुरे उद्घाटयन्ति संचार मन्त्री शर्मा। प्राविधिक शिक्षा सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमेऽपि प्राथमिकतायां समाविष्टास्ति ती प्रत्यपादयत्। सर्वकारस्य प्रवक्ता च मन्त्री शर्मा नेपालस्य शिक्षायाम् अध्ययनेन सह आर्जनमिति नीतिः व्यावहारिक रूपेण क्रियान्वयने आनेतव्येति बलं प्रादात्। पांस्था जनपदस्य हिलिहाङ ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी भारपा स्थाने अग्निदाहेन बालकौ मृतौ स्तः। स्थानीयस्य प्रेम पन्थाक इत्यस्य गृहे गतदिने अपराह्नस्य पादोन पञ्चवादने दुरापन्नेन अग्निदाहेन स्थानीयस्य श्रण पन्थाक इत्यस्य पञ्चवर्षीय पुत्रा शेषेहाङ पन्थाक मातुलगृहम् आगतः फिदिम नगरपालिकायाः पञ्चमवडा क्षेत्रवर्तिनः चोकमागु स्थानस्य सन्तोष खाती इत्याख्यस्य चतुर्वर्षीय पुत्र निशान खाती च दग्ध घटनास्थले एव मृतौ इति प्रहरी ज्ञापयति।